अस्माकं विषयः साधारणं कारणम् इति. गतसप्ताहे साधारणं कारणं किम् इति तस्य परिचयः अभवत्. अपि तु अनुभवः, अनुभवस्य प्रकाराः अपि दृष्टाः. किञ्चित् पुनःस्मरणरूपेण सारांशं दृष्ट्वा अग्रेसरेम. यथार्थ अनुभवः, यथार्थ अनुभवस्य प्रभेदः चत्वारः: प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधश्च. यथार्थ अनुभवस्य करणम् अपि चतुर्विधम् अस्ति. व्यापारद्वारा यत् कारणं, कार्यं जनयति तत् करणम्. यदा तत् करणं ज्ञानं जनयति तदा तत् करणं प्रमाणं भवति. प्रत्येकस्मिन् अनुभवे कीदृशं प्रमाणम् अस्ति इति अस्ति. प्रत्यक्षज्ञानम् इन्द्रियसन्निकर्षेण जायते. इत्यतः प्रतिगतम् अक्षम् इन्द्रियं यस्य इति तस्य विग्रहः. प्रमितिः इति अपि उच्यते. तस्य करणम् अपि प्रत्यक्षम् इति नाम्ना ज्ञायते. प्रतिगतम् अक्षम् इन्द्रियम् इति प्रत्यक्षं करणार्थे अस्ति. अनुमितिः इत्यनेन पूर्वं जायमानस्य ज्ञानस्य अनुवृत्तिरूपेण यत् ज्ञानं भवति तदेव अनुमितिः. साकाङ्क्षितं ज्ञानम् इति उच्यते. अत्र प्रमाणं भवति अनुमानम्. शब्दः प्रमाणं भवति शाब्दबोधस्य. आहत्य करणस्य निरूपणवाक्यमस्ति वा मूलग्रन्थे तस्य अर्थः अस्ति असाधारणं कारणं करणम् इति. असाधारणं कारणम् इत्यस्य परिचयात् प्राक् साधारणं कारणं किम् इति पश्येम. यत् निखिलकार्यं प्रति, इत्युक्ते कार्यमात्रम् इति अस्ति पुस्तके. कार्यमात्रम् इत्युक्ते निखिलकार्यं प्रति, सर्वं प्रति यत् कारणं भवति तत् साधारणं कारणं. विशिष्टकारणेन सह अनुगतम् अस्ति साधारणं कारणं. तानि दिक्कालौ ईश्वरीयज्ञानेच्छाकृतयः प्रागभावश्च. एतत् सर्वं पठितं गतसप्ताहे. इदानीं किञ्चित् विस्तरेण प्रत्येकं साधारणं कारणं पश्यामः. प्रश्नः अस्ति वा? अस्तु, नो चेत् पठेम. बालसुब्रह्मण्यं महोदय पठितुमिच्छति वा? पृष्ठसङ्ख्या अस्ति अष्टत्रिंशत्यधिक एकशतम्.
दिक्कालादीनां साधारणकारणत्वव्यवस्थापनं कथं हि एतेषां कार्यमात्रं प्रति कारणताम् अवगच्छामः उच्यते. तदादौ दिक्कालयोः कारणत्वं साधयामः. यदि यद् उत्पत्त्यधिकरणत्वेन प्रतीयते तत् तस्य जनकमिति नियमः. कपाले घटोत्पत्ति प्रतिमा घटः कपाले उत्पद्यते इति हि तादृश उत्पत्तेः कपाले प्रतीति. तादृशप्रतीतौ उत्पत्त्यधिकरणत्वेन प्रतीतं कारणं घटस्य जनकमिति अपि सिद्ध्यति. तद्वदेव च घटोत्पत्तिः देशे काले च प्रतीयमाना तयोः अपि घटजनकतां साधयति.
Hmm. तस्मात् पूर्वं महोदय क्षम्यतां, महोदयेन शनिवासरस्य वर्गे उक्तमस्ति यत् साधारणकारणानि षड् इति दृष्टवन्तः, परन्तु अन्ये कारणे अपि स्तः, य अदृष्टम् ईश्वरः अपि साधारणे कारणे इति तेन उक्तमस्ति. अदृष्टम् इत्युक्ते कारणरूपेण यत् 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 भवति, यस्य कारणत्वं साक्षात् न द्रष्टुं शक्नुमः, तत् अदृष्टम् इति. ईश्वरः पृथक्तया ईश्वरः इति साधारणं कारणम् अस्ति, इत्युक्ते ईश्वरीयज्ञानम् इच्छाकृति तेषाम् अतिरिक्तम् ईश्वरः कारणं भवति इति महोदयेन उक्तम्. सम्यक्तया अखिला भगिनी, तत्र भवती भवत्याः चिन्तनमस्ति वा?
अधिकं सः न उक्तवान् भगिनी, तर्हि अहं चिन्तयामि इत्युक्ते प्रायः ईश्वरः अस्ति चेदेव तस्य ज्ञानं, कृतिः, इच्छा इति सर्वं भवति खलु इति किमपि स्यात् इति, परन्तु सम्यक्तया न जानामि.
अस्तु, ईश्वरः अस्ति, तद् भागमपि वयं पठामः अद्य. ईश्वरः अस्ति इति कथं अनुमानं कुर्मः इति भागः, प्रायः ईश्वरः अस्ति वा ईश्वरस्य विद्यमानम् अस्ति इति, ईश्वरस्य साधारणकारणत्वम् इति प्रायः अस्ति तत्र. अन्यत् अपि अस्ति तत्र तस्मिन् पुटे एव, सप्तत्रिंशत्यधिक एकशतं पुटं पश्यन्ति चेत् तत्र जिज्ञास्य इति पदम् अस्ति प्रथमपरिच्छेदे. इतोपि कः खलु अस्य उपयोगः इति जिज्ञास्य देशान्तरे स्थितान् कार्यान्तरे व्यापृतान् वा जनात् पृच्छामश्चेत् इति वाक्यमस्ति तत्र. जिज्ञास्य इति महोदयेन उक्तं यत् तत् दोषपूर्णं पदम् इति. जिज्ञासा इति सनन्तपदम् अस्ति, तत्र उपसर्गः इति नास्ति. सामान्यतया उपसर्गः अस्ति चेत् तत्र लबन्तं तत् लबन्तपदं भवति खलु, ल्यप् इति योजनेन. अत्र त्वप्रत्ययः एव भवति यतोहि जिज्ञासा इत्यस्मिन् उपसर्गः नास्ति, जिज्ञासा इति सनन्तपदम् अस्ति, अतः जिज्ञासित्वा इति लबन्तपदं निष्पद्यते. तथैव चिकीर्षा इति सनन्तपदम्, चिकीर्षा इति कर्तुम् इच्छति इत्यनेन अर्थेन, तथापि चिकीर्षित्वा इति लबन्तपदमेव निष्पद्यते. उपसर्गपूर्वकं पदं तु विजिज्ञास्य इति यदा भवेत् तदा लबन्तपदम् अस्ति. अन्यत् जिज्ञासित्वा वा चिकीर्षित्वा इत्यनयोः त्वान्तप्रत्ययः एव युज्यते इति महोदयेन उक्तम्. अतः जिज्ञास्य इति दोषपूर्वकं पदं, पूर्णकं पदम्. तदेव वक्तुम् इष्टवती. अस्तु महोदय, क्षम्यतां, वदतु बालसुब्रह्मण्य महोदय.
कार्यमात्रं प्रति कारणत्वं कथम्, अपि च दिक्कालयोः कारणत्वं कथम्, इति अस्मिन् अध्ययौ अत्र पश्यामः. नियमः अस्ति यत् उत्पत्तिकारणत्व अधिकरणः तत् तस्य जनकमिति इति नियमः. अधिकरणम् इत्युक्ते घटभूतसाम् इति हानि अधिकरणं न अत्र, किन्तु घटः कपाले इति वत् इति उत्पत्तिकारणम्, एतत् सदृशम् उत्पत्तिकारणम्. इत्थम् उत्पत्ति अधिकरणत्वेन यत् प्रतीयते तत् तस्य जनकम् इति नियमः. घटः कपाले उत्पद्यते इति उत्पत्तेः कपाले प्रतीतिः, एवं प्रतीतौ कपालं घटस्य जनकम् इति. तत्र एव घट उत्पत्तिः दिक् देशे काले च प्रतीयमाना तयोः अपि जनकतां साध्यते.
अस्तु, सम्यक् महोदय. अत्र उदाहरणमस्ति, उदाहरणं किम् अस्ति अत्र दिक्कालयोः कारणत्वं साधनार्थं किम् उदाहरणं स्वीकृतम् अस्ति? यथा यथा भवता उक्तं किं प्रथमं ज्ञानं किम् अस्ति? अस्माकं ज्ञानं घटः उत्पद्यते इति ज्ञानं खलु. हा, तत्र नियमः अस्ति उत्पत्तिः कस्यचित् वा कस्यचित् उत्पत्तिः भवति चेत् तस्य अधिकरणं भवेत्. यत् अधिकरणं यत् तस्य अधिकरणम् अस्ति तत् तस्य जनकः इति नियमः. अत्र उदाहरणं स्वीकृत्य वदतु महोदय.
कपालः
किम् उत्पद्यते? उदाहरणे किम् उत्पद्यते?
कपालम् उत्पद्यते.
घटः खलु,
क्षम्यताम्, कपालम् अधिकरणेन उत्पत्ति प्रति अधिकरणत्वं ददाति. घटः उत्पद्यते
अधिकरणम् इति कृत्वा नियमानुसारेण किं निष्पद्यते?
नियमानुसारेण घटः घटस्य जनकं कपालम्.
घटस्य जनकः कपालः,
जनकः कपालः.
हा, तत्रापि दोषः आसीत् इति महोदयेन उक्तं. तादृशप्रतीतौ उत्पत्ति अधिकरणत्वेन प्रतीतः कपालः घटस्य जनकः इति अपि सिद्ध्यति इति पुल्लिङ्गपदम् अस्ति इति कृत्वा. हा, समीचीनं. कपालः जनकः इति प्रतीयते. हा, तद्वदेव इति. राजेन्द्रमहोदय.
आं भगिनि.
अग्रे कथं घटः उदाहरणं स्वीकृत्य घटोत्पत्तिः कपाले इति उदाहरणं स्वीकृत्य कथं देशकालस्य साधारणकारणत्वं भवति इति भवान् वदति वा? अग्रे पठति अपि पठतु महोदय. तद्वदेव च इति आरभ्य.
तद्वत् एव च घटो देशे काले च प्रतीयमाना तयोरपि घटजनकतां साधयति. यदा कपाले घट उत्पत्ति उत्पत्ति प्रतीतिः अस्ति, तत् ज्ञानम् अस्ति, तत् तथैव देशे काले अपि तत् अधिकरणत्वम् अस्ति घटोत्पत्ति घटोत्पत्ति कृते. तत् देशे काले अपि तत्र घटोत्पत्ति अधिकरणत्वेन तत् प्रतीतिः जायते, तथा घटजनकतां देशे काले च साधयति.
समीचीनम्, अग्रे पठतु महोदय.
प्रतीयते खलु कपाले इदानीम् इह घटोत्पत्तिर् इति तस्यां प्रतीतौ च इदानीम् इति उल्लिख्यमानः महाकालः इह प्रति
प्रतीयमानः
इति क्षमताम् इह इति प्रतीयमानादिक् इति तत् तन्निरूपण अवसरे प्रपञ्चितम् एव, तथा च पूर्वोक्तनियमेन कपालस्य घटं प्रति कारणत्वम् एव उत्पत्ति अधिकरणत्वेन प्रतीतत्वात् दिक्काल्यो अपि घटजनकत्वं सिध्यति. इत्थम् एव निखिलकार्याणाम् उत्पत्तिप्रतीतौ तयोः विषयत्व आवश्यकत्वात् कार्यमात्रं प्रति तयोः कारणत्वम् अपि तेन एव नियमेन सिध्यति. तस्मात् दिक् कालश्च जन्यजगतः साधारणकारणे. प्रयत्नं करोमि, प्रायः सहायम् आवश्यकम्. प्रतीयते खलु कपाले इदानीं इह घटो उत्पत्तिर् इति प्रतीतिः भवति कपाले महाकालस्य सूचना. इदानीम् इह इत्युक्ते महाकालस्य सूचना. इदानीं
इदानीं महाकालस्य इदानीम् इत्यनेन महाकालस्य
इत्युक्ते दिक् दिक् सूचना.
समीचीनं.
कपाले इदानीं महाकालस्य दिक् सूचना घटोत्पत्तिर् इति घटोत्पत्तिर् प्रति तत् प्रतिः भवति. इह इत्युक्ते दिक् दिक् सूचना
इत्युक्ते अत्र अत्र इति दिक् विषयः.
अत्र दिक् विषये सूचना घटोत्पत्ति कृते तथा प्रतीतिः भवति. तस्यां प्रतीतौ च इदानीम् इति उल्लिख्यमानः महाकालः यथा घट उत्पत्ति प्रतीतिः तथा जायते, तत् इदानीम् इति यथा वदामः तत्र तु महाकालस्य उल्लिख्यमानः उल्लेखनम् एव भवति तत् इदानीम् इति. तेन महाकालस्य इदानीं उल्लेखमानः महाकालस्य उल्लेखमानः भवति.
उल्लेखनं
भवति इह इति प्रतीयमाना दिक् इति तत् तन्निरूपण अवसरे प्रपञ्चितम् एव. यथा पूर्वं प्रश्नवाक्ये आसीत् तथा अत्र किञ्चित् विस्तृतरूपेण लिखितमस्ति. इदानीम् इति यदा इदानीं वदामः तेन उल्लेखनं कृत्वा तत् महाकालस्य सूचना अस्ति. इह इति यथा इह इति तेन इह इति क्षम्यताम् इह इति प्रतीयमाना दिक् इह यदा वदामः तेन दिक् इति निरूपण अवसरे प्रपञ्चितम् एव. तत् तस्य दिक् सूचना इह पदेन दिक्खा एव सूचितः अस्ति.
इत्युक्ते यथा महाकालस्य निरूपणम् आसीत् अपि तु दिक् विषयः चर्चितः आसीत् तदा इदानीम् इति इत्यनेन महाकालस्य सूचनं भवति इति पूर्वमेव चर्चितं निरूपणावसरे अपि तु दिक्विषये अपि दिग्विषये अपि तदा चर्चितम् इति दिशिः दिशिः किं विशिष्यते इति पूर्वं चर्चितम् अस्ति
प्रपञ्चितम् एव अत्र कः प्रयोजनः प्रपञ्चितम् एव
प्रपञ्चितम् इति मया दृष्टं कोशे इत्युक्ते चर्चितम् इति विस्तरेण चर्चितम् इति अर्थः तप्रत्ययः एव प्रपञ्चितः तस्य धातु अहं न जानामि अखिलभगिनी भवती जानाति वा प्रपञ्चितम् इत्यस्य धातु
न भगिनि प्रायः द्रष्टव्यम् अस्ति मम
अस्तु अस्तु भगिनि
तथा च पूर्व उक्तनियमेन कपालस्य घटं प्रति कारणत्वम् एव उत्पत्ति अधिकरणत्वेन प्रतीतित्वात् दिक्कालयोः अपि घटजनकत्वं सिद्ध्यति पूर्वोक्ति नियमेन यथा तत् उपरि लिखितमासीत् नियमः यदि यद् उत्पत्ति अधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति नियमः तेन नियमेन अत्र यथा कपालः घटस्य जनक कपाले घटस्य जनकत्वम् अस्ति तथैव दिक्काल्यो अपि घटजनकत्वं तेन नियमेन सिद्ध्यति यथा तत् अधिकरणं दिक्कालः अपि अधिकरणत्वेन तत्र घटस्य घटजनकत्वं घटोत्पत्ति उत्पत्ति कृते कारणानि सन्ति साधारणकारणानि सन्ति इत्थम् एव निखिलकार्याणाम् उत्पत्तिप्रतितो तयोः विषयत्व आवश्यकत्वात् कार्यमात्रं प्रति तयोः कारणत्वम् अपि तेन एव नियमेन सिद्ध्यति निखिलकार्याणां निखिलकार्यं सर्वे कार्याणां कृते उत्पत्तिप्रतितो तयोः विषयत्व आवश्यकत्वात् तत् भगिनि किं विषयत्व आवश्यकत्वात् किम् इत्युक्ते
हा इत्युक्ते कीदृशी प्रतीतिः जाता अस्ति प्रथमं घटः उत्पद्यते इति प्रतीतिः खलु तस्मात् घटं कुत्र उत्पद्यते इति प्रतीतिः काले देशे च उत्पद्यते इति प्रतीतिः प्रतीतिः अस्ति चेत् विषयता अस्ति खलु तत्र ज्ञानविषयः अस्ति तस्य घटस्य उत्पत्ति घटः उत्पद्यते इति ज्ञानं तत्र घटः इति विषयः वा घटोत्पत्तिः इति विषयः पुनः तस्मात् घटः कुत्र उत्पद्यते देशे काले च उत्पद्यते इति विषयः विषये अस्ति विषयता खलु विषयतासम्बन्धः ज्ञानं विषयतासम्बन्धेन विषये अस्ति इति ज्ञातं खलु अस्माभिः
तयोः कार्यमात्रं प्रति तयोः कारणत्वम् अपि तेनैव नियमेन सिद्ध्यति यथा कपाले अधिकरणत्वम् अस्ति तत् कारणात् तत् घटकार्यं
एकनिमिषं कपाले अधिकरणं किं महोदय
कपाले कपालः घटस्य अधिकरणम् अस्ति कपाले घटोत्पत्तिप्रतिमा यथा वाक्यमासीत् स्थूलक्षैः तत्र तु कपाले तु कपालः तु अधिकर्णत्वेन घटं जनयति तयोः विश्व तयोः ज्ञान आवश्यकत्वात् कार्यमात्रं प्रति दिक्कालः अपि कारणत्वेन घटस्य जनकं भवति
इति प्रतीयते तत्रापि तादृशी प्रतीतिः भवति इति तस्मात् किं नियमेन
नियमेन यथा अधिकरणत्वं तत् प्रतीयते तस्य जनकं तस्य जनकम् इति नियमः अस्ति यस्मिन् यस्मिन् तत् प्रतीयते यथा दिक्काले काले तत् अधिकरणत्वेन प्रतीयते तथा तेन नियमेन तत् दिक्कालः अपि घटं प्रति जनकः सिध्यति
तयोः जनकत्वं सिध्यति अपि तु अन्तिमं वाक्यं पठतु महोदय
तस्मात् दिक्कालश्च जन्यजगतः साधारण कार्ये उपरि यः यथा लिखितम् अस्ति तत् कारणात् दिक्कालः तु जन्यजगतः सर्वत्र कार्येषु प्रति साधारणकारणं भवति सर्वेषु कार्येषु
यत्किमपि जन्यम् अस्ति जगति तेषां प्रति देशकालस्य कारणत्वं साधारणकारणत्वम् इति सिद्ध्यति समीचीनं महोदय अस्तु एतावता प्रश्नः अस्ति वा
भगिनि तत्र विषयत्वावश्यकत्वात् इति पुनरेकवारं कृपया
इत्थमेव निखिलकार्याणाम् उत्पत्तिप्रतीतौ तयोः विषयत्व आवश्यकत्वात् कार्यमात्रं प्रति अस्तु पूर्वम् उदाहरणे किं दृष्टमस्ति अस्माभिः घटोत्पत्तिः जायते इति प्रतीतिः घटोत्पत्तिः भवति इति तस्मात् घटोत्पत्तेः अधिकरणम् अपि प्रतीयते घटोत्पत्तेः अधिकरणं किम् अस्ति कपालः इति प्रतीतिः जायते तथैव कालदिग्विषये अपि घटः घटोत्पत्तिः तु जानीमः घटोत्पत्तिः भवति इति ज्ञानम् अस्ति घटोत्पत्तिः कुत्र जायते काले देशे च जायते इति तादृशी प्रतीतिः अपि जायते घटः कुत्र अस्ति काले देशे च उत्पद्यते इति प्रतीतिः अपि जायते अतः तत्र विषयत्व आवश्यकत्वात् इत्युक्ते कीदृशविषयता विषयः अत्र किम् अस्ति कालः देशः च अधिकरणे इति विषयः खलु अस्माकं ज्ञाने कीदृशविषयः अस्ति
घटः इदानीम् इह अस्ति इति
हा समीचीनं घटः इदानीम् इह अस्ति इति तादृशे ज्ञाने के विषयाः सन्ति
घटः अपि च इदानीम् इह इति
हा तर्हि घटः घटस्य विशेषणे के तादृशे ज्ञाने
घटः अपि च इह
घटः हा समीचीनम् इत्युक्ते विषयतासम्बन्धेन घटः किम् इह इत्यनेन विशिष्यते घटः पुनः इदानीम् इत्यनेन विशिष्यते घटः खलु अतः तत्र विषयतासम्बन्धः अस्ति तयोः मध्ये विषयत्व आवश्यकत्वम् इत्युक्ते इह इति विषयस्य आवश्यकत्वम् इह वर्तते इति तादृशविषयता अपि आवश्यकः भवति. इदानीं वर्तते घटः इत्यपि तादृशविषयतायाः आवश्यकता भवति चेत् तादृशविषयता अस्ति चेत् तर्हि काले देशे च उत्पद्यते इत्यस्मात् कालः अपि च देशः घटस्य जनकौ इति निष्पद्यते.
तत्र विषयता अस्ति इति कृत्वा कारणत्वम् आगच्छति. कारणत्वम् अस्ति अतः तत्र किं जनकता आगच्छति इति.
आम्, जनकता आगच्छति इति अधिकरणं केवलम् उत्पत्ति अधिकरणम् इति प्रमुखः विषयः तत्र. यथा कपालः घटे उत्पत्तेः अधिकरणम् अस्ति, अत्रापि कालिकसम्बन्धेन घटः काले अस्ति न तु समयसम्बन्धेन.
भगिनि वस्तुतः काले उत्पद्यते खलु, न तु काले अस्ति इति.
काले उत्पद्यते एव, परन्तु सम्बन्धः भिन्नाः खलु. एकनिमिषं भगिनि, कपालः घटे उत्पद्यते समवायसम्बन्धेन इति तत्र सम्बन्धः तु समवायेन भवति. अत्र घटः काले उत्पद्यते कालिकसम्बन्धेन इति भिन्नसम्बन्धः अस्ति अत्र. परन्तु उत्पद्यते एव, किमर्थम् इत्युक्ते अधिकरणम् इति उच्यते. काले वर्तते, घटः उत्पद्यते काले, कालस्य अधिकरणे कालः इति अधिकरणे उत्पद्यते इति कृत्वा कालः अधिकरणं भवति, परन्तु भिन्नेन सम्बन्धेन इति भगिनि.
हा सत्यं भगिनि, तदेव सम्बन्धः भिन्नः एव, परन्तु तत्र आकारः घटः काले अस्ति इति न, परन्तु घटः काले उत्पद्यते इति.
हाम् हाम् अतः एव जनकः इति उच्यते. हाम् समीचीनं भगिनि. सन्ध्या भगिनी इदानीं
क्षम्यतां भगिनि, अपि च सन्ध्या भगिनी उक्तवती यत् तत्र तादृशज्ञानम् अस्ति इति कृत्वा कारणत्वम् आगच्छति इति खलु. तथा वस्तुतः कारणत्वं तु अस्ति, परन्तु तादृशज्ञानम् अस्ति इति कृत्वा वयं जानीमः कारणता अस्ति इति, तत्र किञ्चित् भेदः अस्ति तावदेव.
तादृशं ज्ञानं जायते इति कृत्वा तादृशं कारणत्वम् अस्ति. किमर्थम् अस्ति इति वदामः, तादृशज्ञानेन एव कारणत्वं ज्ञायते खलु.
सत्यं, हा तदेव, इत्युक्ते तादृशज्ञानेन कारणता आगच्छति इति न, परन्तु तादृशज्ञानेन कारणता प्रतीयते.
इदानीं स्पष्टं वा भगिनि?
आम् धन्यवादः. नमस्ते भगिनि, श्रूयते किम्?
हा श्रूयते भगिनि, प्रश्नः अस्ति वा?
आमाम्, अस्तु. प्रश्नः एतत् अस्ति, अस्तु, उत्पत्तिसमये उत्पत्ति अनन्तरं यदा उत्पत्ति भवन् अस्ति उत्पत्तिक्षणानन्तरं, तदनन्तरं घटः कपाले समवायसम्बन्धेन अस्ति, काले कालिकसम्बन्धेन अस्ति वक्तुं शक्नुमः वा? उत्पत्ति अनन्तरं अन्येषु क्षणेषु यस्मिन् यावत्कालपर्यन्तं घटः अस्ति, घटः ध्वंसः नास्ति, तावत्पर्यन्तं
घटोत्पत्तिः तु यथा यदा उत्पद्यते तदा एव तस्य उत्पत्तिः अपि काले अपि तु कपाले तदनन्तरं घटः अस्ति इति स्थितिः खलु भवत्याः प्रश्नः सम्यक्तया न अवगतं भगिनि
कालः दिक् अपि घटस्य घटं प्रति कारणत्वम् अस्ति काले कालिकसम्बन्धेन उत्पद्यते इति उक्तं किन्तु अनन्तरम् उत्पद्यात् अनन्तरं घटे काले अस्ति इति काले कालिकसम्बन्धेन अस्ति इति वक्तुं शक्नुमः किल
आम् परन्तु जनकत्वं तु सर्वदा अस्ति खलु
आम् जनकत्वं सर्वदा अस्ति आम्
कारणत्वं सर्वदा अस्ति तेषु
आम् जनकत्वं तस्मिन् क्षणे एव अस्ति इति तस्मिन् क्षणे एव अस्ति खलु इत्युक्ते
उत्पत्तिक्षणे एव अस्ति इति वा
ऐ मीन् टैम् T1 इति वदामः चेत् तस्मिन् समये जनकत्वम् अस्ति अन्यक्षणेषु अस्ति कथः अस्ति तत्र कालिकसम्बन्धेन इति मम मनसि भाति अन्यः किं चिन्तयति न जानामि उत्पत्तिक्षणः T1 इति मन्ये तदानीं तस्य T1 एव तस्य जनकः भवति अन्यक्षणेषु T greater than T1 तत्र केवलं तत्र अस्ति कालिकसम्बन्धेन इति अहं चिन्तयामि
अन्य कोऽपि किं चिन्तयति
क्षम्यताम् अहं तत्र न सम्यक् न अवगतवती इत्युक्ते तत्र कालिकसम्बन्धेन यदा घटोत्पत्तिः जायते तदा कालिकसम्बन्धेन कालः कारणम् अनन्तरक्षणे यदा घटः अस्ति तत्र कालिकसम्बन्धेन घटः काले अस्ति इति तत्र प्रश्नः न अवगतः मया
तत्र
भवत्याः प्रश्नः जनकत्वविषये वा
जनकत्वविषये नास्ति मम प्रश्नः केवलं भिन्नभिन्नवाक्यानि यस्मिन् समये घटः उत्पद्यते तस्मिन् समये घटः काले कालिकसम्बन्धेन उत्पद्यते अन्यस्मिन् समये घटः काले कालिकसम्बन्धेन अस्ति इति वाक्यद्वयम् अपि वाक्यद्वयं भिन्न भिन्नक्षणेषु भिन्नवाक्यानि वक्तुं शक्नुमः इति एव मम प्रश्नः
वाक्ये तु सत्यमेव भगिनि
अस्तु
अत्र अस्मिन् परिच्छेदे तु दिक्कालयोः जनकत्वं चर्चितम् आसीत् खलु जनकत्वम् इत्युक्ते उत्पत्तिविषये एव चर्चा
परन्तु
अस्ति अस्तित्वं तु कालिकसम्बन्धेन इति तत्तु सत्यमेव
अस्तु अस्तु
भगिनि अत्र देशकाल इति ज्ञानस्य विषयः अस्ति अतः देशकाल भवति अधिकरण घटस्य उत्पत्ति समये सो ज्ञानस्य विषयीभूत यथा महोदय उक्तवान् प्रतीति या ज्ञानम् अस्ति तत्र अस्मिन् देशे अस्मिन् काले घट उत्पद्यते इति प्रतीति अस्ति सो घटस्य अधिकरणं काल भवति अत्र घटस्य अधिकरणं कालविषयी क्रियते दिक् घटस्य अधिकरणं दिश विषयी क्रियते ज्ञानस्य विषयः अस्ति घटकाल
अत्र समीचीनमेव भगिनी ज्ञानस्य विषयौ एव लक्ष्मीभगिन्याः प्रश्नः तु अस्तित्वविषये आसीत् खलु भगिनी, न तु
आं भगिनि अस्तित्वविषये आसीत् न तु
परन्तु यथा सरला भगिन्या उक्तम् अस्ति अत्र अस्मिन् परिच्छेदे तु अधिकरणं प्रतीयते उत्पत्तेः घटोत्पत्तिः वा यत्किमपि भवतु तस्य उत्पत्तेः अधिकरणं प्रतीयते इति कृत्वा तस्य घटस्य वा यत्किमपि भवतु तस्य जनकत्वं काले देशे च इति ज्ञानं भवति इत्येव विषयः.
आं तत् समीचीनं भगिनि.
अस्तु अस्तु भगिनि. इदानीं षट्षष्टितमं पुटं पश्यामः.
किं पुटं भगिनि?
स्पेट् 66 इति. सावित्री भगिनी पठति वा?
आं भगिनि. ईश्वरसाधक अनुमानं तत्र वा?
आम् आं भगिनि.
अस्तु. यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः, यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयस्पर्शः आश्रयेण विना न भवति इति तादृशत्वेन वायुः अतिरिक्तं द्रव्यं साधितं, तद्वत् ईश्वरानुमानाय प्रसिद्धः ज्ञानं ज्ञायमानः न कोऽपि गुणः वर्तते, यमादाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत. अतः अत्रत्या प्रीतिः अस्ति अन्यादृशी. ओ अस्तु. अत्र पुनः अनुमानस्य किमर्थम् एतद् आगतम् इति नाम
किमर्थम् इत्युक्ते साधारणकारणेषु ईश्वरीयज्ञानम् अन्यतमः अस्ति, तस्मात् प्राक् ईश्वरः अस्ति इति कथं ज्ञायते इत्यस्य भागः अत्र अस्ति.
अस्तु भगिनि. अस्तु अस्तु. यथा पूर्वम् अस्माभिः दृष्टं शब्द आकाशनिरूपणावसरे यदा आकाशद्रव्यं पठितवन्तः तदा वयं दृष्टवन्तः यत् शब्दः श्रूयते परन्तु तस्य कोऽपि आश्रयः भवेत् एव, विना आश्रयेण शब्दः केवलं स्वस्मिन् न स्थातुं शक्नोति इति ऊहा कृत्वा वयं चिन्तितवन्तः आकाशः इति एकः द्रव्यम् एकं द्रव्यं भवेत् इति. तथैव वायुनिरूपणावसरे अनुभूयमानः विजातीयस्पर्शः, तथैव यदा वायु इति द्रव्यं दृष्टवन्तः तत्रापि स्पर्शः भवति, विजातीयस्पर्शः भवति, तस्य स्पर्शस्य कारणं एकः गुणः अस्ति परन्तु तद् कमपि आश्रयित्वा एव तिष्ठति इति विचिन्त्य तत्र वायु इति अतिरिक्तद्रव्यम् आगतम्. तथैव अत्र ईश्वरस्य अनुमानं कर्तुं शक्नुमः इति प्रश्नः, परन्तु अत्र लिखितमस्ति तत्र कोऽपि गुणः. भगिनी वदतु.
तथैव यत् भवत्या उक्तं, पुनः वदतु भगिनि, तथैव ईश्वरस्य अनुमानम् इति वा
कर्तुं शक्नुमः वा इति प्रश्नः. परन्तु अत्र लिखितमस्ति तत्र कोऽपि गुणः नास्ति ईश्वरे यस्य मात्रेण वयं ईश्वरस्य अनुमानं कर्तुं शक्नुमः. समादाय तदाश्रयत्वेन ईश्वरः सिध्यते इति न वक्तुं शक्नुमः. किमर्थं चेत् ईश्वरे यः कोऽपि गुणः इति अस्ति इति वक्तुं न शक्नुमः, परन्तु अन्यद्रीत्या तस्य अनुमानं कर्तुं शक्नुमः इति अग्रे उच्यते इति मन्ये.
समीचीनं भगिनि, अस्तु. अग्रे अखिला भगिनि पठति वा?
आं भगिनि. दण्डचक्रादिकारणसमवधाने अपि यदि कुलालः न भवति न घटः उत्पद्यते. तन्तुतुरीवेमादिरूपकारणसत्त्वेपि यदि तन्तुवायः न भवति न पटः उत्पद्यते. तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कपालचक्रादयः यथा अपेक्षिताः तथैव चेतनोऽपि कश्चित् आवश्यकः. तेन ईदृशनियमः आगतः, किञ्चित् कार्यम् उत्पद्यते चेत् चेतना अपेक्षा वर्तते. अस्तु, तर्हि यदा घटनिर्माणं भवति तदा दण्डचक्रादि कारणानि सन्ति चेदपि अत्र यदि कुलालः नास्ति तर्हि घटस्य उत्पादनं न भवति. तद्वतेव तन्तुवायः नास्ति चेदपि पटनिर्माणं न भवति. तर्हि तेन वयम् अवगन्तुं शक्नुमः यत् कस्यचित् कार्यस्य उत्पादनार्थं कस्यचित् पुरुषस्य इत्युक्ते चेतनयुक्तजनस्य आवश्यकता अस्ति अत्र. अन्यानि कारणानि सन्ति चेदपि चेतनः अत्र नास्ति चेत् कार्यनिर्माणं न भवति इति कृत्वा नियमः आगतः यत् किञ्चित् कार्यम् उत्पद्यते चेत् चेतना अपेक्षा वर्तते. इत्युक्ते चेतनजनस्य अपेक्षा अस्ति कार्य उत्पादनार्थम् इति.
इत्युक्ते कोऽपि जीवितः भवेत् यः कार्यं प्रति कारणं भवेत् इति. समीचीनं भगिनि. अग्रे पुष्पा भगिनि भवती पठति वा?
अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वं.
भगिनि भगिनि कुत्र अस्ति? पेज् 66. एवं सति इति आरभ्य.
एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते, तथापि कार्योत्पत्तिः दृश्यते. तथापि न वर्तन्ते, तथापि कार्योत्पत्ति दृश्यन्ते. यथा द्वयणुकादि संयोग परम्पराया महापृथ्वीगोलः महत् जलं सूर्यादि तेजांसि उत्पद्यन्ते. तत्र यः चेतनः अस्मदादि भिन्नः स्वीकर्तव्यः भवति, स एव ईश्वरः. अत्र अस्मादृश
एवं सति इत्युक्ते किम्?
एवं सति तत्तु कार्यम् उत्पद्यते चेतनापेक्षा
समीचीनम्
अत्र कश्चित् कार्यक्रमः एवं सति यत्र अस्मादृशाः अल्पज्ञाः अल्पज्ञाः
इत्युक्ते अल्पज्ञानमेव भवति खलु अस्मासु इति
तथैव अस्ति
कुलालः केवलं घटनिर्माण निर्माणं जानाति खलु
कुलालादयः तत्तु तन्तुवायः तन्तुनिर्माणम् अस्तु ते न वर्तन्ते तथापि कार्यमपि दृश्यते कथं दृश्यते भगिनि
भगिनि पुनर्वाक्यं पठतु भगिनि
एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते तत्तु न वर्तन्ते इति न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते ते न सन्ति चेदपि कथं कार्यं कार्योत्पत्तिः
अत्र कार्योत्पत्तिः इत्युक्ते केवलम् अत्र घटोत्पत्तिः वा तन्तोत्पत्तिः इति न विषयः तद् अतिरिक्त बहूनि कार्याणि सन्ति खलु जगति
भगिनी अत्र यः शब्दः अस्ति अस्म अदृशाः तत् एवम् अस्ति वा यत् यत् वयं न द्रष्टुं शक्नुमः अस्म अदृशाः
अस्मादृशाः इत्युक्ते लैक् अस् इति अस्मादृशः वयं अस्मादृशाः अल्पज्ञाः कुलादादयः इत्युक्ते अस्माभिः कानिचन कार्याणि एव निर्मातुं शक्यन्ते खलु
अहं चिन्तयामि तत् अस्मादृशाः यत् अस्माभिः न दृश्यते
अत्र
तत्र अपि कार्योत्पत्तिः कृते कोऽपि चेतनः आवश्यकी तत् सः एव ईश्वरः
न महोदय अत्र
योगपरम्परया
विषयः नास्ति केवलं कुलालः घटनिर्माणं जानाति तस्य ज्ञानं तु सीमितम् अस्ति तत् घटं प्रति सः कारणम् अस्ति पुनः तन्तुवायः तन्तुं प्रति कारणं भवति एतत् सर्वम् अस्माभिः एतत् सर्वं द्रष्टुं शक्नुमः यतः भवता उक्तं द्रष्टुं शक्नुमः अस्मादृशाः अल्पज्ञाः कुलालादय इत्युक्ते कुलालः इव तन्तुवायः इव अल्पज्ञाः वयं सन्ति अस्माभिः यत् कार्यम् अस्माभिः कर्तुं शक्यते
दृश्यन्ते
तत्तु तत्तु वयं द्रष्टुं शक्यते अस्माभिः रामेण एतत् कृतं वा श्यामेन एतत् कृतम् इति परन्तु कार्योत्पत्तिः तु तस्मात् तस्य अतिरिक्तकार्याणि अपि सन्ति खलु जगति
परन्तु भगिनि अत्र अग्रे यथा लिखितम् अस्ति द्वय अनुकादिसंयोगपरम्पर्या महापृथ्वी गोलः महत् जलं सूर्यादि यानि कार्याणि यत् दत्तमस्ति उदाहरणत्वेन द्वयनुकसंयोगः महापृथ्वी गोलः महत् जलं सूर्यादि तेजांसि कथम् उत्पद्यन्ते तत् अदृशाः सन्ति कः कः तत् उत्पद्य कः कः कारणः अस्ति चेतनकारणः कः भवति सः अस्माभिः अदृशाः सन्ति अस्मा अदृशाः सन्ति तत् तथा अहं चिन्तयामि तत्
अस्मदृश मादृशी सादृशी तादृशं महोदय अन्य को संध्या भगिनी
तत्र तदेव सारूप्यं दर्शयति तावदेव तत्र अदृश्यं दर्शनस्य विषयः नास्ति तत्र सादृश्यं दर्शयति इत्येव यथा भवति वदति
महोदय इदानीं स्पष्टं वा
मम संशयः अस्ति भगिनि इदानीम् अग्रे सरामः अहं चिन्तयामि तत्र या अस्माभिः न दृष्टं साक्षात् न द्रष्टुं शक्नुमः यथा अनुक
अस्तु महोदय एकनिमिषम् अस्मादृशाः इति कस्य विशेषणम् अस्ति
कार्याणि यथा तत्र द्वय अनुकसंयोगः महापृथ्वी गोलः महज्जलं तत् तस्य विषये अस्ति अस्मा अदृशाः
एकनिमिषं पदस्वरूपं वदतु महोदय एकनिमिषं पदरूपं किं कीदृशं पदम् अस्ति अस्मादृशाः इति
अस्म आदृशाः चिन्तयामि तत्
अस्म आदृशः भवति वा तस्य विग्रहः कः सन्धिपदं वा
अस्माभिः न दृश्यते
अदृष्टः इति आगच्छति खलु तदा
यथा यत् वयं न द्रष्टुं शक्नुमः
किम् अस्ति यत् वयं न द्रष्टुं शक्नुमः तद् अदृष्टः इति खलु महोदय किं चिन्तयति
किञ्चित् अधिकं चिन्तनं करोमि तत् इदानीम्
सदृशः इति पदं जानाति खलु महोदय सदृशः
जानामि तादृशी सदृशी
तादृशी
परन्तु तत् अग्रे सरामः इदानीं किञ्चित्
अस्तु वाक्यस्य रूपं किं दृश्यते इति अस्ति क्रियापदं खलु तत्र किं न दृश्यते
यत् द्वय अनुकसंयोगः यथा भवति वयं न द्रष्टुं शक्नुमः महापृथ्वी गोलः कथं कथं कथं
एकनिमिषं वाक्यस्य प्रथमभागः किम् कः अस्ति
एवं सति यथा कार्य उत्पद्यते कुत्र कोऽपि चेतन अपेक्षा अस्ति तत् वर्तते यथा घट उत्पत्ति अथवा पट उत्पत्ति सम्यक् तत् चेतन अपेक्षा अस्ति तत् यत्र अस्मादृशः यत्र वयं न द्रष्टुं शक्नुमः वयं न पश्यामः एव अपि च अल्पज्ञा कुलालादयः न वर्तन्ते तत्र तथापि कार्य उत्पत्ति दृश्यते यत् वयं द्वय अनुकसंयोगपरम्परया महापृथ्वीगोलः महज्जलं तत्सर्वमपि उत्पद्यते यथापि वयं न द्रष्टुं शक्नुमः साक्षात्
चेतन अवगच्छामि तदा चेत् यत्र अस्तु समुद्रं गोलः सूर्यः एते सर्वे वयं द्रष्टुं शक्नुमः खलु ते अदृष्टाः न
कथम् उत्पद्यन्ते ते अत्र मम चिन्तनमस्ति
इति अस्तु एकनिमिषं यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते इति अस्ति खलु वाक्यस्य प्रथमभागः प्रथमभागस्य क्रियापदम् अस्ति वर्तन्ते इति किं न वर्तन्ते कर्तृपदं किम्
अल्पज्ञाः कुलालादयः न
अल्पज्ञाः न अल्पज्ञाः कुलालादयः न वर्तन्ते तर्हि अस्मादृशाः कस्य विशेषणपदं वा किं चिन्तयति कुलालादयः दृष्टाः खलु
आम् आं तत् सत्यं
तर्हि अदृष्टाः इति न भवति कुलालादयः अस्माभिः दृष्टाः अपि न भवति अस्मादृशाः इति अस्मद् सदृशाः कुलालेन सदृशः इति तादृशः अर्थः.
भगिनी अग्रे सरामः, इदानीम्
अस्तु
चिन्तनीयमेव आसन् विषये.
अस्तु अस्तु महोदय. पुष्पा भगिनी वदतु.
तत्र यथा द्वयणुकादि संयोगपरम्परा महापृथिवी गोलः महत् जलं सूर्यादि तेजांसि उत्पद्यन्ते तत्र यः चेतनः अस्मदादि भिन्नः स्वीकर्तव्यः भवति. एते सर्वे द्रयणुकादि संयोगपरम्परां महापृथ्वी गोलः तु महत् जलं ते सर्वे भिन्नः या चेतना भिन्नः अस्ति
समीचीनं भगिनि. सः एव ईश्वरः इत्युक्ते कोऽपि निर्माणकारकः अस्ति वा कोऽपि सृष्टिकर्ता अस्ति यः न दृश्यते यः तेषाम् उत्पादनस्य तेषाम् उत्पादनं करोति इति अस्ति. भगिनि
ईश्वरः करोति इति
समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनि.
आं भगिनि.
ज्ञानम् इच्छाकृतिः इति भागः अग्रिमपुटे.
अस्तु. ज्ञानम् इच्छाकृतिः इति त्रयाणां परस्परं भेदः. अत्र प्रसङ्गात् ज्ञानादीनाम् आनुभाविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः. कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. तत्र अनेकविधान् वृक्षान् पश्यति. केचन पुष्पिताः केचन फलिताः केचन पत्रमयाः दृश्यन्ते. इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम्. अयम् एकः आत्मगुणः. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति न तु वक्ष्यमाणा इच्छाप्रयत्नो वा. अस्तु. अत्र अत्र अस्मिन् परिच्छेदे ज्ञान इच्छाकृति इति तस्य वैलक्षण्यं किम् इति उदाहरणेन साधयामः. प्रथमं यदि कोऽपि यानेन ग्रामं ग्रामात् बहिः गच्छन्नस्ति तदानीं गवक्षात् उद्यानानि पश्यति. इत्युक्ते गवक्षात् इत्युक्ते अहं चिन्तयामि सैड् वेस् इति अहं चिन्तयामि. समीचीनं वा?
संस्कृतेन
वातायनम्. ओ अस्तु अस्तु. वातायनम् अस्तु. गवक् अस्तु. वातायनात् उद्यान यानस्य वातायनात् उद्यानानि पश्यति. तत्र उद्याने अनेकविधाः वृक्षाः सन्ति. केचन वृक्षेषु पुष्पाः सन्ति. अन्य केचन वृक्षेषु फलाः सन्ति. इतोपि अन्य तत्र केवलं पत्रमयाः सन्ति इति सः इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते. सः यः यत् पश्यति तदेव सः तदेव सः व्यवह्रियते. व्यवहारम् इति शब्दबोधकव्यवहारमिति किं तत् संज्ञा शब्द शब्दप्रयोगेन यत् ज्ञानं उत्पद्यते तत्
ज्ञानजनकशब्दप्रयोगः इति
ज्ञानजनकशब्दप्रयोगः आमां ज्ञानजनकशब्दप्रयोगः उपयुज्य उपयोगं करोति इत्यादिभिः व्यवह्रियते इत्युक्ते ज्ञानजनकशब्दप्रयोगात् सः उद्यानस्य विवरणं करोति तत् निरूपितं प्रकाशात्मकं ज्ञानम् इत्युक्ते ज्ञानस्य विषयः अत्र अस्तु अत्र ज्ञानस्य विषये अस्ति उद्यानः वृक्षः वृक्षेषु पुष्पाणि फलानि इत्यादि प्रकाशात्मक तत् अत्र ज्ञानस्य प्रकाश ज्ञानस्य प्रकाशः इत्युक्ते प्रकाशात्मकज्ञानं तत्र ज्ञानस्य त्रय प्रकाशः त्रिषु स्तरेषु सन्ति किल विशेषणं विशेष्य
सविषयकं ज्ञानम् इति अत्र प्रकाशः इति विषयता तेषु पतति इति तत्र दृष्टान्तेन वयं तत्र उदाहरणमासीत् पूर्वं खलु ज्ञानः इति दीपापन्नः दीपात् प्रकाशः निर्गच्छति विषयान् प्रति इति अत्र सविषयकं ज्ञानम् अत्र इत्येव इति अस्ति
अस्तु सविषयकज्ञानम् अत्र सविषयकज्ञानं विषयः अस्ति अत्र वृक्षाणि फलानि फलानि पुष्पाणि इत्यादि अयमेकः आत्मगुणः अस्तु ज्ञानम् इति आत्मस्य आत्मनः गुणः अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति न तु वक्ष्यमाणा इच्छा प्रयत्नो वा अत्र अत्र ज्ञानस्य विषयः अस्ति केवलं उद्याने वर्तमान वृक्षाः एव किन्तु तत्र ज्ञाने किन्तु इच्छा प्रयत्नः इति तत् नास्ति इत्युक्ते केवलम् अत्र ज्ञानमेव अस्ति किन्तु इच्छा प्रयत्नः इति द्वयोपि गुणः तत् अत्र नास्ति इति
केवलं यत् साक्षात् दृश्यते तत्तु ज्ञानमेव ज्ञानमेव जनयति अतः तस्मिन् आत्मनि ज्ञानमेव उत्पद्यते एतावता इच्छा प्रयत्नः न जायते एतावता अस्तु अग्रे सन्ध्या भगिनी पठति वा
परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव परन्तु इतोपि अन्यः आत्मनि गुणः उत्पद्यते स एव इच्छा इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना इदानीम् उद्याने उत्पन्ना अतः अयं ज्ञानात् भिन्नः गुणः तर्हि पूर्वस्मिन् परिच्छेदे
परन्तु
अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति तर्हि यद् पूर्वस्मिन् परिच्छेदे दृष्टवन्तः तत्र तस्मिन् समये सः यदा ग्रामं गच्छन् अस्ति तस्मिन् समये यदा गवाक्षात् पश्यति तत्समये केवलं तस्य ज्ञानं भवति वृक्षाणां विषये. अनन्तरं यदा सः विहारार्थम् उद्यानं प्रति गच्छति तदा तत्र वृक्षाः अपि च लताः सन्ति इति इत्यस्य विषये ज्ञानं तु तस्य अस्ति. इदानीं तान् वृक्षान् ताः लताः दृष्ट्वा तस्य आत्मनि भिन्नः गुणः उत्पद्यते यस्य नाम इच्छा. एतस्य गुणस्य आकारः इदं मम भवतु इति शास्त्रे वर्णनम् अस्ति. तर्हि तद् अस्ति इत्यस्य विषये अस्ति इत्यस्य अपेक्षया एतद् भिन्नम् अस्ति वृक्षः अस्ति वा लता अस्ति इति ज्ञानम् अस्ति. इदानीं सः चिन्तयति इदानीं वृक्षम् इच्छामि वृक्षः मम भवतु वा लता मम भवतु इति इच्छा भिन्ना अस्ति ज्ञानात् भिन्नम् इति गुणः अस्ति. परन्तु अग्रे हा तर्हि अत्र तु विक्रयणं न भवति इदानीं पुष्पस्य वा लतायाः वा इति सः जानाति इति कृत्वा सः इदं मम भवतु इति या इच्छा अस्ति तस्य इदानीं किं तस्य साकारार्थं सः वृक्षवाटिकां गच्छति तस्य सम्पादनार्थम्. इतोपि किमपि वक्तव्यं वा तत्र?
तदेव भगिनि. तर्हि ज्ञानं प्रथमं प्रक्रिया अस्ति यत् प्रथमं ज्ञानं तदनन्तरम् इच्छा इदं मम भवतु इति.
तर्हि वृक्षवाटिकां गच्छति इत्येव तत्र कृतिः वा कृतेः तत्र आरम्भः तस्मादेव अस्ति वा?
सम्पादनार्थं वृक्षवाटिकां गच्छति इतोपि कृतिविषये अग्रे आयाति.
अस्तु
हा अन्तिमे परिच्छेदे. अस्तु सरला भगिनी.
अस्तु भगिनि तत्र प्राथमिकं ज्ञानं तस्य भवति द्वितीया इच्छापि इतोपि तृतीयः गुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा धनार्थं सञ्चिकां याति. सः गुणः न यात्रायाम् उत्पन्नः नापि उद्याने तदा सः यदि उद्पत्तस्य हस्तः सञ्चिकाम् अगमिष्यत् न गत तेन विद्मः. आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः स एव प्रयत्नः स्थिति प्रवृत्ति यत्नः भावना इत्यादि शब्दैः व्यवह्रियमाणः आत्मविशेषगुणः. तस्मिन् सति हि हस्तपादादौ क्रिया भवति असति क्रिया न भवति. जाग्रत अवस्थायां प्रतिक्षणे शरीरे अनेकाः क्रियाः भवन्ति सर्वत्र न इयं कृतिः अपेक्षिता. उत्तेक्षपणादौ एतेषां त्रयाणाम् आवश्यकतां वक्ष्यामः. इदानीं दत्तमस्ति क्रमेण सोपानं के सन्ति. प्रथमसोपानमस्ति प्रथमज्ञान आयाति द्वितीयसोपानं भवति इच्छा तृतीयसोपानं भवति गुण आत्मनि उत्पद्यते कृति अस्ति. तृतीय यदि गुण आत्मनि आगच्छति तेन हस्त पाया पादौ कार्यं भवति हस्त पादौ चलित्वा धनार्थं सञ्चिका याति, स धनं पातुं सञ्चिकां प्रति गच्छति वा वित्तकोषे गच्छति. सः गुणः न यात्रायाम् उत्पन्न, एतत् यः गुणः तस्मिन् मनसि यदि आगच्छति तद् गुणः यदि ग्रामे यात्रा कर्तुं सः गतवान् तदा न आगतवती तद्गुणः न आगतवान्. नपि उद्याने यदि उद्याने गतवान् केवलम् इच्छा तस्य मनसि आगतवती कि अहम् एतं इष्टुम् इच्छामि. तदा स यदि उदपत्तस्य हस्तः सच्चिकाम् अगमिष्यत् तद् तृतीयं गुण आगच्छति, एतत् अहम् इच्छामि तस्य कृते कृति भवति. तस्य कृतेः नाम भिन्ना अस्ति, प्रयत्नः कृति प्रवृत्ति यत्न भावना इति भवति अस्माकं व्यवहार प्रति इदानीं. तस्मिन् सतिः हस्तपादौ क्रिया भवति. यदि कृति इति मनसि आगच्छति तदि प्रयत्न कर्तुं हस्तपादौ इति क्रिया अस्माकं भवति. यदि कृति मनसि न आगच्छति प्रयत्नः तस्य इच्छा नास्ति भावना नास्ति त क्रिया अपि न भवति. जागृत अवस्थायां वयं बहवः क्रिया कुर्मः, तस्य पार्श्वे इच्छा अपि ज्ञान तस्य पूर्वम् इति गुणः आगच्छति तर्हि क्रिया भवति. त्रीणि त्रयगुणः क्रमेण आगच्छति, प्रथमं सोपानं ज्ञानं, द्वितीय सोपानम् इच्छा, तृतीय सोपानं भवति कृति वा प्रयत्नः भाव.
कृतिः इति अत्र अत्र गुणः इति वा? हा, कृतिः इति भिन्ना, परन्तु
आत्मगुणः
अत्र आत्मनः गुणः तु गुणौ ज्ञानम् इच्छा इति खलु.
कृति इन्द्रियै भवति, कर्मेन्द्रियै.
कृतिः अपि गुणः एव खलु भगिनि?
प्रथमं मनसि आगच्छति तदहि मनसि इन्द्रिय प्रति भवति न, यदि मनसि
प्रयत्नः अपि आत्मनः गुणः एव. अस्तु, सर्वं आत्मनि एव
उत्पद्यते.
अस्तु, समीचीनम्. अत्र प्रश्नः नास्ति इति मन्ये, स्पष्टं खलु? इदानीं तु अस्माकं मूलविषयः साधारणकारणं, पुनः अष्टत्रिंशत् अधिक एकशतमं पुटं पठामः. अखिल भगिनि पठति वा?
आं भगिनि. ज्ञाने च कृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम्, इतश्च ईश्वरीयज्ञाने च कृतीनां साधारणकारणत्वं साधयामः. आत्मनिरूपणे निखिलस्य कार्यस्य चेतनसापेक्षत्वं प्रदर्शितं, ततः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया द्वयणुकात् प्रभृति महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशचेतनः ईश्वरः इति साधितम्। तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति।
तावत्पर्यन्तं भगिनि।
अस्तु भगिनि, तर्हि इदानीं दिक् काल दिक् अपि च काल कालः तयोः साधारणकारणत्वं तत्र निरूपितवन्तः। तदनन्तरम् इदानीम् ईश्वरज्ञाने ईश्वरीयज्ञानेच्छाकृतीनां साधारणकारणत्वं कथं सिद्ध्यति इति अत्र अस्ति। तर्हि यथा इदानीं वयं परिशीलितवन्तः तत्र निखिलस्य कार्यस्य इत्युक्ते सर्वेषां कार्याणां चेतनासापेक्षत्वम् आवश्यकम् इति, इत्युक्ते कश्चन चेतनयुक्तपुरुषः भवतु इति, यथा कुला घटनिर्माणं प्रति कुलालः, पठनिर्माणं प्रति तन्तुवायः इति आसीत्। तद्वत् सर्वस्य कार्यस्य कृते तत्र कश्चन चेतन चेतनः चेतनः आवश्यकः। तर्हि तादृशचेतनः ईश्वरः इति वयं स्वीकृतवन्तः। यथा तत्र परमाणुसंयोगस्य अनन्तरं द्वयणुकं, द्वयणुकात् त्रयणुकं, तदनन्तरं तथा तत्र सर्वेषां द्रव्याणां पृथिव्यादीनां द्रव्याणाम् उत्पादनं यदा भवति तत्र कुलालवत् चेतनः अपेक्षितः, सः ईश्वरः इति वयं निरूपितवन्तः। तत्र इत्युक्ते अन्तिमवाक्यमस्ति, तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति इत्युक्ते चेतनपुरुषः अस्ति चेदपि तस्य कपालज्ञानं नास्ति चेत्, इत्युक्ते कपालेन घटनिर्माणं भवति इति तादृशज्ञानं नास्ति चेत्, कपालम् अस्ति चेदपि कश्चन चेतनः अस्ति चेदपि तत्र घटः न घटनिर्माणं न सम्भवति इति, इत्युक्ते घट कपाले घटकारणता न आगच्छति इति कृत्वा घटनिर्माणं न भवति।
भगिनि एकः प्रश्नः अस्ति,
एकनिमिषम् अखिला भगिनि, अभवत् वा भवत्याः भागः?
हां भगिनि।
अस्तु,
इतोपि किञ्चित् वक्तव्यं वा?
न न न न, सम्यक् एव। सरला भगिनी वदतु भगिनि।
उपरि समवेतानां कथं दत्तमस्ति, ज्ञान इच्छाकृतीनाम् ईश्वर समवेतानां? वयं जानीमः यदि घट कपाल अस्ति तत् घट भवति समवेतं, कपाल अस्ति अधिकरणं, अत्र ज्ञान इच्छाकृति इति सर्वे अधिकरणं सन्ति
न, ईश्वरः अधिकरणमस्ति खलु भगिनि अत्र। ईश्वरे ज्ञानेच्छाकृति कृतयः सन्ति, तर्हि ईश्वरः अधिकरणं ते तत्र समवायसम्बन्धेन सन्ति इति कृत्वा ते समवेताः।
ईश्वरः समवायी इति वदामः खलु, क्षम्यतां भगिनि,
समवेता सन्ति ईश्वर अधिकरणम् इति
सम्यक्तया न श्रूयते।
ज्ञान इच्छा कृति समवेतं सन्ति ईश्वर अधिकरणम् इति अस्ति ज्ञान इच्छा कृतिना ईश्वर समवेतानां साधन
अत्र गुणः समवेतः भवति द्रव्ये इति खलु
आम्
हा इति कृत्वा ते अपि गुणाः खलु ज्ञाने इच्छा कृति कृतयः गुणाः ईश्वरे समवेताः सन्ति यथा यथा पूर्वं गुणस्य समवेतं माधुर्यम् इति पठितं खलु माधुर्यम् इति गुणः गुडे अस्ति इति कृत्वा गुडे समवेतं माधुर्यम् इति तादृशमेव अस्ति अत्र ईश्वरः अधिकरणम् इति अस्तु मालसुब्रह्मण्य महोदय
घटसमवायिकारणं साक्षात्कृत्य साक्षात्कृत्य खलु कुलालः घटं निर्मिमिति तेन कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता अन्वय व्यतिरेकाभ्यां सिद्ध्यति
हा तावत् पर्यन्तं महोदय
सो घट घटसमवायिकारणं समवायिकारणे एव घट आसीत् तत् कारणं साक्षी साक्षात् कृत्य इत्युक्ते
इत्युक्ते
वस्तुत्वं कृत्वा वस्तुत्वं कृत्वा वा
इत्युक्ते दृष्ट्वा तस्य साक्षात् ज्ञानं भवति खलु प्रत्यक्षज्ञानं यज्जायते दर्शनेन दृष्ट्वा चक्षुरिन्द्रियेण जायते इति
एवमेव कुलालः घटं निर्मिमीति
हा इत्युक्ते किम्
कारणं दृष्ट्वा एव कुलालः घटं घटं निर्माणं करोति
निर्मिमीते इत्युक्ते निर्माति इति
निर्माति
पर्यायवाचिपदं हा घटस्य समवायिकारणं यः कपालः तं दृष्ट्वा एव घट सः घटं निर्माति खलु इत्युक्ते घटस्य समवायिकारणं यः कपालः हा तस्य ज्ञानं भवेत् घटनिर्माणार्थम् अग्रे राजेन्द्रमहोदय अग्रिमं वाक्यं
कुतः तुल्ययुक्त्या
तेन
कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यपि घटं प्रति जनकता अन्वयव्यतिरेकाभ्यां सिद्ध्यति यथा कुलालः घटसमवायिकारणं साक्षात् पश्यति साक्षात् पश्यति अथवा कपालं साक्षात् पश्यति तेन कुलालस्य यथा घटकारणत्वं कुलालस्य यथा घटकारणत्वं तेन यथा तत् घटसमवायिकारणं साक्षात् कृत्य कुलालस्य यथा घटकारणत्वं सा जानाति घटकारणत्वं जानाति तथैव कुलाले विद्यमान यत् कपालप्रत्यक्षं तस्य अपि घटं प्रति जनकता कुलाले विद्यमान कपालप्रत्यक्षं कुलाले तस्य अपि इत्युक्ते कुलाले घटं प्रति जनकता अन्वयव्यतिरेकाभ्यां सिद्ध्यति. अन्वयव्यतिरेकाभ्यां महोदय तत्सत्त्वे तत्सत्त्वं असत्त्वे तत् असत्त्वं
तदभावे तदभावः इति सहचर अन्वयसहचारः व्यतिरेकसहचारः इति
तथा कुलालः तथा तस्य तस्य आत्मनि तथा ज्ञानम् अस्ति तत्कारणात् सः अपि घटं प्रति जनकत्वं तत् जनकत्वं सिद्ध्यति. कुलालः घटस्य प्रति जनकत्वं कुलालस्य घटत्वं प्रति जनकत्वं सिद्ध्यति. तस्य जनकता अस्ति तुल्ययुक्ता जगत्
एकनिमिषं महोदय एकनिमिषम् अन्वयव्यतिरेकाभ्यां किं सिद्ध्यति अत्र अस्मिन् प्रसङ्गे तस्य प्रयोगः कः?
कुलालस्य आत्मनि यथा कपालसमवायिकारणम् अस्ति घटस्य प्रति तत् ज्ञानेन अपि च तत् कपालप्रत्यक्षं भवति तत् सत्त्वे तत् सत्त्वं यथा सः कपालं पश्यति तत् सः घटनिर्माणं करोति.
तत्सत्त्वे
इत्युक्ते कपालः अस्ति तत् कपालस्य साक्षात्कार
ज्ञानम् अस्ति इति खलु
ज्ञानम् अस्ति
अत्र तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षम् इति इत्युक्ते ज्ञानं साक्षात्कारं ज्ञानं कपालप्रत्यक्षं तस्य अपि इत्युक्ते ज्ञानस्य अपि घटं प्रति जनकता इति अग्रे
तुल्ययुक्त्या जगत्कारणीभूते ईश्वरे विद्यमान यत् तत् तत् कार्यसमवायिकारणस्य ज्ञानं तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः. तथैव यथा कुलालस्य आत्मनि यः ज्ञानः अस्ति सः अपि तस्य अपि जनकत्वम् अस्ति घटस्य प्रति तथैव जगत्कारणीभूते ईश्वरे यः जगतस्य यः उत्पादनं करोति निर्माणं करोति ईश्वरे विद्यमान यत् तत् कार्यसमवायिकारणस्य ज्ञानम् अस्ति तस्मिन् यः ज्ञानम् अस्ति सः ईश्वरे यः तादृशी ज्ञानः कारणं कार्यं प्रति जगति प्रति जन्यमात्रं कारणं भवति तथैव.
इत्युक्ते ईश्वरः यः जगतः कारणम् इति वयं दृष्टवन्तः तस्मिन्नपि तादृशं ज्ञानं भवति. कीदृशं ज्ञानं?
जगत्कारणीभूत ईश्वरे जन्यमात्रं कारणम्
अत्र तु समवायिकारणम् इति अस्ति
खलु समवायिकारणस्य
इत्युक्ते ये यानि कार्याणि जगति दृश्यमानाः सन्ति तान् प्रति ईश्वरे समवायिकारणस्य ज्ञानम् अस्ति येन तेषां जनकता भवति इति अस्ति अत्र. तदेव अस्ति. अत्र प्रश्नः अस्ति वा अस्मिन् विषये कथं ईश्वरस्य ईश्वरीयज्ञानं साधारणकारणं भवति इति
भगिनि मम प्रश्नः भिन्नः अस्ति. अत्र कथं निर्मीमिते तत्र निर्मीमिते इति पदस्य विवरणं सम्यक् न अवगतम् इत्युक्ते तत् आत्मनेपदी पदम् इति मन् खलु
आत्मनेपदी एव महोदयेन उक्तं
इति निर्मीयते इति कर्मणि प्रयोगः
निर्मीयते इति कर्मणि प्रयोगः
मा इत्युक्ते धातु ज्योत्यादिगणे अस्ति तत् द्वित्वं भवति
आमां महोदय आमां सत्यं नी उपसर्गः अस्तु
जुहादिगणे इति महोदयेन उक्तं खलु अस्तु तर्हि प्रश्न नास्ति चेत् विरमामः तर्हि
अस्तु
अस्तु भगिनि धन्यवादः
अस्तु
धन्यवादः
आगतम्